इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् आधुनिके विश्वस्मिन् सामुद्रिक शक्तिः राष्ट्रस्य सामरिक प्रभावस्य प्रमुखा आधारा अस्ति। कोलकातायां श्यामा प्रसाद मुखर्जी जलपोत स्थात्रे तेन स्वदेश निर्मिताः त्रयः नौ सैनिक पोताः आईएनएस दुनागिरिः, आईएनएस संशोधकः, आईएनएस अग्रयश्च भारतीय नौसेनायै समर्पिताः।
आईएनएस विक्रांत से लेकर आज तक की यात्रा केवल नए युद्ध पोतों की यात्रा नहीं है, यह भारत की बढ़ती आत्मनिर्भरता की यात्रा भी है। इनका निर्माण भारत में हुआ है, इनकी डिजाइन भारत में तैयार हुई है, इनके निर्माण में भारतीय उद्योगों की प्रतिभा लगी है और यही नए भारत की सबसे बड़ी ताकत है।
तेन उक्तं यत् एतेषां पोतानां निर्माणे द्विशताधिकाः सूक्ष्म लघु मध्यमोद्यमाः योगदानम् अकुर्वन्। प्रधानमन्त्री नरेन्द्र मोदी साम्प्रतिक वर्षस्य अन्ताराष्ट्रिय योग दिवसस्य वैश्विक उत्सव रूपेण आयोजनार्थं विश्वस्य जनान् प्रति कृतज्ञतां व्यक्तवान्। तेन उक्तं यत् योगः विभिन्नेषु देशेषु समाजेषु च स्थितान् जनान् स्वास्थ्य कल्याणयोः समान लक्ष्ये संयोजयति। प्रधानमन्त्री एतत् विश्वस्य कृते प्रेरणादायकम् अस्ति इति अवदत्। राष्ट्रपतिः द्रौपदी मुर्मुः कुनो राष्ट्रिय उद्यानस्य भ्रमणं करिष्यति। राष्ट्रपतिः द्रौपदी मुर्मुः मध्यप्रदेशस्य कुनो नेशनल पार्क इत्यस्य राष्ट्रिय उद्यानस्य भ्रमणं करिष्यति। सा प्रोजेक्ट चीता इति योजनायाः प्रगतेः समीक्षां करिष्यति तथा च व्याघ्रपालकैः वन कर्मचारिभिः स्थानीय जनैश्च सह संवादं करिष्यति। अधिकारिणाम् अनुसारेण भारते सम्प्रति पञ्चशताधिकाः व्याघ्राः सन्ति, तेषु अधिकांशतः कुनो राष्ट्रिय उद्याने वसन्ति। भारतम् अद्यारभ्य नवदिल्ल्यां ब्रिक्स राष्ट्राणां राष्ट्रिय सुरक्षा परामर्शदातॄणां द्विदिवसीय सम्मेलनस्य आयोजनं करोति। अस्य अध्यक्षताम् अजीत डोभालः करिष्यति। नीट यूजी षड्विंशत्युत्तर द्विसहस्र पुनर्परीक्षा सुदृढ सुरक्षा व्यवस्थायां सुसम्पन्ना। राष्ट्रिय परीक्षा अभिकरणस्य अनुसारेण देशे विदेशे च स्थितेषु चत्वारिंशदधिक चतुश्शतोत्तर पञ्चसहस्र परीक्षा केन्द्रेषु लक्षशः अभ्यर्थिनः सहभागिनः अभवन्। दिव्यांग अभ्यर्थिभिः सह सर्वेषां परीक्षार्थीनां सुविधार्थाः विशेषव्यवस्थाः अपि कृताः। केन्द्रीय माध्यमिक शिक्षा बोर्ड इत्यनेन द्वादश श्रेण्याः उत्तर पुस्तिका सत्यापनस्य पुनर्मूल्यांकनस्य च परिणामः क्रमशः प्रकाशितः। मण्डलेन प्राप्तेषु उक्तं यत् प्राप्तेषु आवेदनपत्रेषु सप्ताशीत्यधिक शतं प्रतिशतं परिणामः घोषिताः सन्ति। अवशिष्ट परिणामः अपि शीघ्रमेव चरणबद्धरीत्या प्रकाश्यन्ते। छात्राः स्व आवेदनस्य स्थितिं डिजीलॉकर पटले परीक्षितुं शक्नुवन्ति। मण्डलेन निष्पक्षतां शुद्धतां च सुनिश्चित्य सर्वाः प्रक्रियाः सावधानतया सम्पन्नाः इति उक्तम्। छात्राः मिथ्या प्रचारेषु सामाजिक माध्यमेषु प्रसारितान् अप्रमाणित सन्देशान् च न विश्वसन्तु इति केवलं सीबीएसई इत्यस्य आधिकारिक सूचनाः एव अनुसरन्तु इति परामर्शः दत्तः। तमिलनाडु राज्यस्य पेरियापालम क्षेत्रे स्थितायां समुद्री खाद्य निर्यात समवाये अमोनिया वायोः स्रवण घटनायां सप्त जनाः मृताः, सप्तत्यधिकाः श्रमिकाश्च प्रभाविताः जाताः। घटनास्थले उत्थार चिकित्सा कार्याणि निरन्तरं प्रचलन्ति। राष्ट्रिय आपद्मोचन बलस्य तथा रासायनिक जैविक परमाणु आपदा विशेष दलानां च सदस्याः त्वरितं आपद उत्थार अभियानम् आरब्धवन्तः। मुख्यमंत्री सी जोसेफ विजयः उच्चस्तरीय अन्वेषणस्य आदेशं दत्त्वा त्रिसदस्यीयां समितिं नियुक्तवान्। फीफा विश्व कप चषके केप वर्डे उरुग्वे च अनयोः दलयोः स्पर्धा तत्र द्वि द्वि अंकेन समतायाम् अभवत् इति वार्ता।